सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे. तत्र अस्माकं प्रवर्तमानविषयः अस्ति तत्र अभावः. गतवर्गे वयं तत्र अभावस्य तत्र सामान्य अभावः, विशेष अभावः, विशेषविशेष अभावः इति दृष्टवन्तः. तस्मिन् विषये तत्र अनेके अभावाः तत्र भवितुम् अर्हन्ति एकस्मिन् पदार्थे इति कृत्वा, तत्र अवच्छेदक अवच्छेद्यम् इति तत्र तस्य पदार्थस्य अपि आवश्यकता अस्ति इति अस्माभिः पठितं. तान् सर्वान् विषयान् आधाय तत्र विमला भगिन्याः उपस्थापनं वर्तते. अतः तत्र विमला भगिनी कृपया.
अस्तु महोदय. नमस्ते महोदय, नमस्सर्वेभ्यः. सप्तपदार्थेषु भावः षट्सु एव अस्ति. सप्तमः पदार्थः अभावः. भाव इत्युक्ते यः अस्ति इति ज्ञायते या प्रतीयते. यथा द्रव्यमस्ति, गुणः अस्ति, कर्म अस्ति इति. ते भावाः इति कथ्यन्ते. यत् नास्ति तत् अभावः. यथा घटः भूतले अस्ति इति उदाहरणम्. घटः ततः अपसारितः चेत् घटः नास्ति, वयं घटं न पश्यामः. न्यायशास्त्रे घटः नास्ति इति न उच्यते. इत्युक्ते न्यायशास्त्रे घटस्य अभावः अस्ति इति उच्यते. अभावस्थले यत् विरोधः अस्ति तत् सहानवस्थानविरोधः. घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा, अपि च अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा कृता. एतौ ससम्बन्धिकौ. घटनिष्ठ प्रतियोगितानिरूपित अनुयोगिता आश्रयः अभावः इति वक्तव्यम्. गतवर्गे अभावत्रिविधाः अपि च अवच्छेदकभावः अस्माभिः निरूपितम्. सामान्यविशेष अपि च विशेषविशेष अभावः इति. जलम् आधारीकृत्य उदाहरणं दत्तम्. सामान्य अभावः. मत्स्यः जलात् वियोगः जातः चेत् स बिभेति, परिसन्तपति च. सः मत्स्यः यत् जलाभावम् अनुभवति तत् जलाभावः केनापि जलेन अपगच्छति. यत्किमपि जलं, नदीजलं, तडागजलम् अथवा वृष्टिजलं, तस्य अभावस्य विरोधि. इत्युक्ते अभावस्य प्रतियोगिता कस्मिन्नपि जले वर्तते. एषः सामान्य अभावः. अत्र विशेष अभावस्य वर्णनं. चातकपक्षी वृक्षस्य उपरितनशाखायाम् उपविश्य मेघं पश्यन् वृष्टिजलम् इच्छति. सः अभावः सामान्यजलेन न अपगच्छति. चातकपक्षिणः जलाभावस्य प्रतियोगिता केवलवृष्टिजले एव अस्ति. इत्युक्ते जलविशेषे अस्ति. प्रतियोगितायाः आश्रयः वृष्टिजलम् एव. तृतीयः अभावः विशेषविशेषाभावः इति कथ्यते. स्वातिनक्षत्रीयवृष्टिजलाभावः. शुक्तिका सागरस्य गभीरे जले वसति. तस्य परितः सर्वत्र जलमेव अस्ति. परन्तु सा स्वातिनक्षत्रीयवृष्टिजलमेव इच्छति. सार्धमासचतुष्टयं यावत् प्रभूता वृष्टिः भवति सा सागरतले एव अस्ति. सूर्यः स्वातिनक्षत्रे सञ्चरते सति किञ्चित् न्यूना वृष्टिः पतति. तदा शुक्तिका तद्वृष्टिजलस्य कामनया उपरि आगच्छति. इत्युक्ते स्वातिनक्षत्रीयवृष्टिजलाभावम् अनुभवति. अयम् अभावः साधारणजलेन वा अन्यवृष्टिजलेन वा न अपगच्छति. तस्य अभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव अस्ति. केवलं स्वातिनक्षत्रीयवृष्टिजलेन एव शमयति. तेन कारणेन अयम् अभावः विशेषविशेषाभावः इति उच्यते. एवमेव पुष्पसामान्याभावः, नीलपुष्पाभावः, शरत्कालिकनीलपुष्पाभावः इति उदाहरणं सङ्ग्रहे अस्ति. कूपजलं, तडागजलं, नदीजलं, वृष्टिजलम् अपि च स्वातिनक्षत्रीयवृष्टिजलं जलसामान्य अन्तर्भूतानि सन्ति. त्रयाणामपि अभावानां प्रतियोगी जलमेव. सामान्यजलं, वृष्टिजलम् अपि च स्वातिनक्षत्रीयवृष्टिजलम्. स्वातिनक्षत्रीयवृष्टिजले तिस्रः प्रतियोगिताः वर्तन्ते. नाम सामान्यजलाभावस्य प्रतियोगिता, वृष्टिजलाभावस्य प्रतियोगिता, स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता, तिस्रः प्रतियोगिताः वर्तन्ते। ताः भिन्नाः एव इति सत्यं, किन्तु तेषां सम्यक् भेदज्ञानाय अवच्छेदकस्य पदार्थस्य अवगमनम् आवश्यकम्। उदाहरणं क्षीरस्य पात्रे पृथक्करणम्। क्षीरविक्रेता बृहत् पात्रे क्षीरम् आनयति, वयम् उचितपात्रे क्षीरं स्वीकुर्मः। अस्माकं पात्रे स्थितं क्षीरं बृहत् पात्रे विद्यमानस्य क्षीरात् भिन्नम् इति वयम् अवगच्छामः। भिन्नतां दर्शयति इति पात्रम् अवच्छेदकः, क्षीरम् अवच्छेद्यम्। पात्रे अवच्छेदकता, क्षीरे अवच्छेद्यता अस्ति। तयोः निरूप्य निरूपकभावः अपि अस्ति। पात्रनिष्ठ अवच्छेदकता निरूपित, अवच्छेद्यता आश्रयः क्षीरम्। क्षीरनिष्ठ अवच्छेद्यता निरूपित, अवच्छेदकता आश्रयः पात्रम् इति वक्तुं शक्नुमः। अद्यतनवर्गे स्वातिनक्षत्रीयजलनिष्ठ तिस्रः प्रतियोगिताः भिन्नाः इति निरूपणम्। धन्यवादः महोदय।
धन्यवादः भगिनी, बहु समीचीनमस्ति, उत्तममस्ति। धन्यवादः सर्वान् अंशान् आदाय सर्वम् उक्तवती, स्पष्टतया उक्तवती भगिनी, धन्यवादः।
भवतः साहाय्येन महोदय।
अस्तु, समीचीनम् अस्तु। अतः तत्र इदानीम् अस्माकं प्रश्नः, तत्र अद्यतनवर्गस्य तत्र मूलप्रश्नः अस्ति, तत्र जल अभावस्य विषये। तत्र जलमिति उदाहरणं स्वीकृत्य वयं गतवर्गे वयं एतं प्रश्नं दृष्टवन्तः, नाम तत्र स्वातिनक्षत्रीयवृष्टिजलम् अस्ति, तस्मिन् जले तत्र किं किम् अस्ति इत्युक्ते, तत्र सामान्यजलाभावस्य प्रतियोगिता अस्ति, अपि वृष्टिजलस्य अभावस्य प्रतियोगिता अस्ति, अपि स्वातिनक्षत्रीयवृष्टिजलस्य अभावस्य प्रतियोगिता अपि अस्ति। इदानीं तत्र ताः प्रतियोगिताः भिन्नाः इति कथं वयं ज्ञातुं शक्नुमः? इदानीं तत्र सोपानेन गच्छामः, तत्र घटस्य अभावः, घटस्य अभावः अपि घटः, तयोः मध्ये विरोधः अस्ति इति जानीमः। तत्र यत्र घटाभावः अस्ति तत्र घटः नास्ति, यत्र घटः अस्ति तत्र घटाभावः नास्ति। इदानीं तत्र घटाभावस्य घटाभावे यः तत्र विरोधः वर्तते तस्य नाम अनियोगिता, घटे यः विरोधः वर्तते घटाभावं प्रति तस्य नाम अस्ति प्रतियोगिता। तत्र प्रतियोगिता घटे वर्तते, अतः घटः प्रतियोगी इति वदामः। घटाभावस्य प्रतियोगी घटः इति वदामः, अपि घटस्य अनियोगी घटाभावः इति अपि उच्यते। अतः तत्र घटः प्रतियोगी घटाभावस्य इति। इदानीं तत्र घटाभावस्य प्रतियोगिता घटे अस्ति। इदानीं चिन्तयामः, तत्र उत्पीठिका अस्ति, उत्पीठिकायां घटः अपि नास्ति, पुस्तकमपि नास्ति। इदानीं तत्र अतः तत्र घटाभावः अपि अस्ति, पुस्तकाभावः अपि अस्ति। तत्र पुस्तकाभावस्य प्रतियोगिता घटे वर्तते वा? पुस्तकाभावस्य प्रतियोगिता घटे वर्तते वा?
न वर्तते।
अतः तत्र
पुस्तके वर्तते।
हा, उत्पीठिकायाम् इदानीम् अभावद्वयमस्ति, किन्तु प्रतियोगितां तत्र एकस्मिन्, तत्र वयं जानीमः प्रतियोगिता द्वयमस्ति। इदानीं तत्र यदि प्रतियोगितायाः आश्रयः भिन्नाः सन्ति चेत् तत्र अस्मिन् प्रकोष्ठे तत्र घटः नास्ति, अन्यस्मिन् प्रकोष्ठे पुस्तकं नास्ति चेत् वयं जानीमः अस्तु तत्र प्रतियोगिता, अत्र आश्रयभिन्नाः सन्ति इति कृत्वा तत्र भेदः प्रदर्शयितुं शक्नुमः. किन्तु इदानीं तत्र उत्पीठिकायां घटाभावः अपि अस्ति, पुस्तकाभावः अपि अस्ति, किन्तु तयोः मध्ये भेदं कथं साधितुं शक्नुमः इत्युक्ते तत्र घटाभावस्य प्रतियोगिता कुत्र वर्तते अपि पुस्तक.
क्षम्यता, श्रीमन् प्रतिध्वनिः अस्ति किञ्चित् स्पष्टता. इको किमपि भवति वा इति कृपया.
नास्ति भगिनि,
बहु अल्पमस्ति, किञ्चित् अस्पष्टमस्ति. अस्तु
भगिनी, तत्र भवती हेड्फोन्स् उपयोगं करोति वा सावित्री भगिनी?
महोदय स्थापितम्. अस्तु,
इदानीं कथमस्ति तत्र?
एतत् स्पष्टम्, एतत् स्पष्टं
न्यून वाल्यूम् अस्ति. तदानीम् अहं ये हेड्फोन्स् प्रयोगं कर्तुं ये समस्या उद्भवति.
अस्तु महोदय, पश्यामि. अस्तु, इदानीं तत्र अन्येषां कृते कथम् अस्ति?
भवतः
मम अस्तु तत्र. अस्तु भगिनि, एकनिमिष पश्यामि तत्र किं कर्तुं शक्नोमि इति. एकनिमिषः, एकनिमिषं पश्यामि तत्र यदि एतत् करोमि चेत् तत् इदानीं कथमस्ति?
सम्यक् अस्ति आचार्यजी,
सम्यक् सम्यक्.
अना भगिनी, समीचीनं वा?
पश्यामः, समीचीनमहम्
अस्तु तर्हि पश्यामः. अस्तु, अतः तत्र अस्माकं तत्र प्रतियोगितात्रयं तत्र इति इदानीं तत्र स्वातिनक्षत्रीयवृष्टिजले वर्तते इति कृत्वा तेषां मध्ये तत्र भेदः कथं स्थापितुं शक्नुमः इति इदानीं तत्र अग्रे आगच्छति. अतः तत्र अग्रेसरामः, तत्र अवच्छेदकः अवच्छेद्यता विषये वयं पठितवन्तः. इदानीम् अग्रेसरामः, इदानीं तत्र पुटसङ्ख्या अस्ति 22 तत्र. अस्तु, तत्र आना भगिनी भवती एव तत्र आरम्भे पठितुम् इच्छति वा?
अस्तु महोदय, पठामि. इदानीं शास्त्रे एतादृशा अवच्छेदकभावस्य किं प्रयोजनम् इति पश्यामः. अभावनां सामान्यभावः, विशेषभावः, विशेषविशेषाभावः इत्येवं विभागः अनुपदम् चिन्तितः. जलसामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजल अभावस्य वृष्टिजले, स्वस्तिनक्षत्रीयवृष्टिजल अभावस्य च प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले इति तत्र स्थितम्.
अस्तु,
इदानीं शास्त्रे एतादृश अवच्छेदकभावस्य विषये किं शास्त्रः किं वदन्ति?
वयं किं शास्त्रीयविषये तस्य प्रयोजनं किं यतोहि पूर्वं लौकिक उदाहरणमेव दत्तं खलु तत्र विक्रेतुः पात्रं क्षीरम् इति अस्ति लौकिक उदाहरणं दत्तं किन्तु तस्य उपयोगः शास्त्रे तस्य अवच्छेदकः अवच्छेद्यभावः तस्य उपयोगः प्रयोजनं किम् इति अग्रे
पश्यामः
अस्तु अग्रे
वयं पठितवन्तः यत् तत्र सामान्यभावः विशेषभावः विशेषविशेषभावः विभागः त्रयः विभागः सन्ति उदाहरणार्थं जलसामान्य अभावः अभावस्य प्रतियोगिता सर्वस्मिन् जले
इत्युक्ते किञ्चित् वदतु तत्र जलसामान्य अभावः तत्र तस्य प्रतियोगी कः अथवा किम् अस्ति जलसामान्यभावस्य जलं यत्किमपि जलं नदीजलं वा तडागजलं वा किमपि जलं प्रतियोगी भवति अतः तत्र प्रतियोगिता सर्वस्मिन् जले वर्तते अग्रे
वृष्टिजलाभावस्य वृष्टिजले एव वर्तते इत्युक्ते विशेषः अभावः किमर्थं चेत् वृष्टिविषये एव वयं
अतः तत्र वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव वर्तते नदीजले न वर्तते अतः तत्र नदीजलं प्रतियोगी न भवति खलु नदीजलस्य आनयनेन वृष्टिजलः जलाभावः न अपगच्छति खलु वृष्टिजलाभावः तिष्ठति एव यदि नदीजलम् आनयामः वृष्टिजलाभावः तिष्ठति एव खलु अस्तु अग्रे
स्वातिनक्षत्रीयवृष्टिजलाभावस्य च प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले इति तत्र स्थितम् अहं किञ्चित् एतत् न अवगच्छामि प्रायः अहं न जानामि स्वातिनक्षत्र किम् इति अहं
तत्र किं तत्र सप्तविंशतिनक्षत्राणि सन्ति भगिनि तेषु अन्यतमं नक्षत्रमस्ति स्वातिनक्षत्रम् इति तत्र गतवर्गे तत्र अपि तत्र विमला भगिन्या उक्तं तत्र तत्र शुप्तिका इति अस्ति सा केवलं तत्र यदा सूर्यः स्वातिनक्षत्रे तत्र नक्षत्रे अस्ति तस्मिन् सन्दर्भे एव तत्र वृष्टिजलम् इच्छति तस्य तस्मिन् समये या वृष्टिः भवति तद् जलमेव इच्छति अतः तत्र स्वातिनक्षत्रीय इति प्रसिद्ध उदाहरणमस्ति तत्र केवलं विशेषजलमिति तस्य उदाहरणम् अतः तत्र स्वातिनक्षत्रीय तस्मिन् यदा स्वातिनक्षत्रं ये भवति तस्मिन् समये वृष्टिः भवति चेत् यद् जलं पतति तस्य जलाभावः इति तत्र स्वातिनक्षत्रीय वृष्टिजलाभावः तस्य प्रतियोगिता केवलं स्वातिनक्षत्रीयवृष्टिजले एव वर्तते नाम चैत्रमासः अस्ति अथवा अन्यत् नक्षत्रम् अस्ति चेत् तस्मिन् समये वृष्टिः भवति चेदपि तस्य जलस्य आनयनेन एषः अभावः न अपसरति अतः तत्र विशेषविशेष इति द्विवारं कृतं खलु सामान्यजलं विशेषजलं नाम वृष्टिजलम् अपि तत्र वृष्टि सर्वस्मिन् काले तत्र भवति किन्तु केवलम् एकस्मिन् सन्दर्भे एव तत्र यदा स्वातिनक्षत्रं भवति तस्मिन् सन्दर्भे एव इति कृत्वा विशेषविशेषजलाभावः इति उक्तम् अतः तत्र तस्य अभावस्य प्रतियोगी केवलं तादृशविशेषविशेषजलं भवितुम् अर्हति साधारणजलं प्रतियोगी नास्ति वृष्टिजलमपि साधारणवृष्टिजलमपि प्रतियोगी नास्ति केवलं स्वातिनक्षत्रीयवृष्टिजलमेव प्रतियोगी भवति इति अस्ति अतः तत्र इदानीम् अवगतं भवति
इत्युक्ते अहम् इदानीं वदामि, अवगच्छामि नावगच्छामि चेत् भवान् वदतु. एकः जन्तुः अस्ति, सः त्रीणां खादति, परन्तु सर्वां त्रीणां न, एकमेव तृणं खादति, तदेव वा?
हा, तादृशं सत्यं सत्यं. विशेषतृणं खादति, तादृशं तत्र विशेषजलं वृष्टिजलमेव इच्छति इति. उदाहरणार्थं समीचीनम् अस्ति, नाम विशेषविशेषजलं वृष्टिजलम् अपि स्वातिनक्षत्रीयवृष्टिजलम् इति. अस्तु, धन्यवादः.
प्रतियोगिता स्वातिजले, स्वातिनक्षत्रीय वृष्टिजले एव अस्ति.
एव अस्ति, अतः तत्र बहु सीमितम् अस्ति खलु. वृष्टिजलस्य आनयनेन एषः अभावः न अपगच्छति, केवलं तादृशजलमेव तत्र वृष्टिजलं, स्वातिनक्षत्रीयवृष्टिजलमेव भवेत्, नो चेत् एषः अभावः न अपगच्छति. समीचीनं, धन्यवादः भगिनि, तावत्
धन्यवादः.
समीचीनम्. अस्तु, अग्रे तत्र अशोक महोदय अग्रे पठितुम् इच्छति वा?
अस्तु महोदय. तासां प्रतियोगितानाम् अस्ति भेदः. जलाभावनिष्ठा अनुयोगिता निरूपितप्रतियोगिता, जलनिष्ठा अन्या, वृष्टिजल अभाव निष्ठा अनुयोगिता निरूपित प्रतियोगिता वृष्टिजलनिष्ठा ततो भिन्ना, एवं तृतीयेऽपि. परन्तु सः भेदः कथं ज्ञायते?
एतावत्पर्यन्तं महोदय.
पुस्तके लिखितः त्रीणि प्रतियोगितानां भिन्नाः,
तत्र प्रतियोगिताः तिस्रः सन्ति,
तिस्रः ते भिन्नाः सन्ति.
भिन्नः इति अस्माकम् अनुभवः अस्ति खलु, तत्र भिन्नाः इति चिन्तयामः
तस्मिन्
अस्ति तयो, हा, तेषां मध्ये भेदः अस्ति इति चिन्तयामः, तासां मध्ये.
जल अभावस्य प्रतियोगिता जलनिष्ठा अस्ति, जले तिष्ठति. जल अभावस्य प्रतियोगिता वृष्टिजले अस्ति,
वृष्टिजले एव अस्ति, वृष्टिजले एव अस्ति.
अतः आश्रयः भिन्नः, अतः
आश्रयः, हा, आश्रयः इति, हा, अस्तु.
अतः प्रतियोगिता अपि भिन्नः
इति वक्तुं, हा, इति वक्तुम् इच्छामः. समीचीनं. हा, इदानीं तत्र यद् वाक्यमस्ति तत्र जलाभावनिष्ठ अनियोगिता निरूपित, तत्र तत् कीदृशमस्ति? यथा तत्र वयं पूर्वम् उक्तवन्तः खलु, तत्र अनियोगी प्रतियोगी तत्र ससम्बन्धिकशब्दाः इति कृत्वा तयोः मध्ये निरूप निरूप्यकभावः अस्ति इति खलु. अतः तत्र तद् वाक्यस्य अवगमनम् अस्ति वा महोदय? जलाभावनिष्ठ अनियोगिता इति प्रथमवाक्य,
वृष्टिजल अभावः तस्य,
तत्र प्रथममेव स्वीकरोतु महोदय, जलाभावनिष्ठ, जलाभावनिष्ठ इति वाक्यं स्वीकरोतु. हा, तत्र जलाभावनिष्ठ प्रतियोगिता
वृष्टिजल अभावे तिष्ठति, अनुयोगिता प्रतियोगिता निरूपिता निरूपयति, प्रतियोगिता वृष्टिजले तिष्ठति.
हा, वृष्टिजले अस्ति. अतः तत्र एतादृशं तत्र वयं चित्रं कृतवन्तः खलु, तत्र यत्र तत्र जल जलमस्ति, जलाभावः अस्ति, जले प्रतियोगिता अस्ति, अपि जलाभावे अनियोगिता अस्ति, अपि तयोः मध्ये निरूप्यनिरूपकभावः अस्ति इति तत्र यथा तत्र पूर्वस्मिन् पुटे अपि अस्ति, तत्र पश्यतु महोदय, तत्र पुटसङ्ख्या 20 तत्र अपि अस्ति खलु, तत्र वृष्टिजलाभावः
23 अपि अस्ति महोदय.
किन्तु न, तत् तद् इदानीं मास्तु, तद् इदानीं मास्तु. हा, अस्तु, तदपि समीचीनमेव. हा, अस्तु, तदपि समीचीनमेव. अस्तु, अतः तत्र
वृष्टिजल अभावः अभावनिष्ठा अनुयोगिता निरूपिता तदियोगिता आश्रयः वृष्टिजलः
वृष्टिजलं वृष्टिजलम् इति समीचीनं हा तत्र उपरि गमने तत्र निष्ठा इति उपयोगः अधोगमने आश्रयः इति अथवा वान् अथवा वत् इति तत्र मतु प्रत्ययस्य उपयोगम् अस्तु समीचीनं महोदय अतः तत्र एतावत् वयं किं पठितवन्तः तत्र नाम भवान् किं पठितवान् तत्र वृष्टिजलाभावस्य प्रतियोगिता जलनिष्ठा अस्ति वृष्टिजलाभावः वृष्टिजलनिष्ठा अस्ति अपि तृतीया अपि नाम स्वातिनक्षत्रीयवृष्टिजलं के जलाभावस्य प्रतियोगिता
सा तु भिन्नः
हा भिन्नः स्वातिनक्षत्रीयवृष्टिजले एव अस्ति इति समीचीनम् अस्तु समीचीनं महोदय धन्यवादः अस्तु अग्रे अन्य कोऽपि पठति अतः तत्र अग्रे प्रेमलता भगिनी अग्रे पठितुम् इच्छति वा
महोदय यद्यपि स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव न अन्यस्मिन् जले वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ अत्र प्रतियोगित आश्रय आधार आश्रय रीत्वा तत्कारणेन प्रतियोगिता इति भिन्ना इति उच्यते
हा हा अस्तु तत्र स्वातिनक्षत्रीयवृष्टिजलाभावः अस्ति तस्य प्रतियोगी कः
स्वातिनक्षत्रीयजले अस्ति
हा स्वातिनक्षत्रीयवृष्टिजलम् एव प्रतियोगी समीचीनं हा अतः तत्र अन्यस्मिन् जले प्रतियोगिता तत्र वृष्टिजलं वा साधारणजलं वा तत्र तस्मिन् प्रतियोगिता नास्ति हा अपि अग्रे वृष्टिजलाभावस्य
प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयौ उभयत्र भिन्नौ
हा उभयत्रौ भिन्नौ अवगच्छति खलु भगिनि नाम स्वातिनक्षत्रीयवृष्टिजलस्य प्रतियोगिता केवलं स्वातिनक्षत्रीयवृष्टिजले एव वर्तते नाम तस्य आश्रयः केवलं स्वातिनक्षत्रीयवृष्टिजलम् वृष्टिजलाभावस्य प्रतियोगितायाः आश्रयः
वृष्टिजले अस्ति
वृष्टिजलं भवितं यत्किमपि वृष्टिजलं जलमेव अतः अत्र आश्रयौ भिन्नौ
भिन्नौ
समीचीनं हा इदानीम् अग्रे
अतः आश्रयभेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः तथापि जलं नास्ति इति सामान्याभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते स्वातिनक्षत्रीयवृष्टिजले अपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः विचारमेनं चित्ररूपेण पश्यामः आश्रयभेदत्वेन प्रतियोगिताभेदत्वं ज्ञातुम् अशक्यः भवति
ज्ञातुं शक्नुमः ज्ञातुं शक्यः तत् कर्तुं शक्नुमः हा किन्तु समस्या का तत्र तथापि जलं ततः पठ
ओके आश्रयभेदेन प्रतियोगिता अपि भेद प्रतियोगितया अपि भेदः भवति इति ज्ञातुं शक्यः
हा तत्र उदाहरणार्थं भगिनि तत्र एतत् चिन्तयामः तत्र पुस्तकाभावः अपि घटाभावः तत्र तयोः मध्ये भेदः वर्तते वा? नाम तत्र इदानीं तत्र उत्पीठिकायां तत्र उत्पीठिकायां पुस्तकमपि नास्ति, घटमपि नास् घटः अपि नास्ति. इदानीं तत्र अभावद्वयमस्ति वा अथवा अभावः एकः एव अभावः अस्ति वा इति प्रश्ने सति अभावः द्वयमस्ति, यतोहि घटाभावस्य प्रतियोगी कः? प्रतियोगी न न घटाभावस्य प्रतियोगिता कुत्र वर्तते? घटाभावस्य प्रतियोगिता कुत्र वर्तते? घटे एव वर्तते. अपि पुस्तकाभावस्य प्रतियोगिता कुत्र वर्तते?
पुस्तके एव
वर्तते. इदानीं घटः भिन्नं पुस्तकं भिन्नम् इति कृत्वा आश्रयभेदः वर्तते, अतः प्रतियोगिताः भिन्नाः इति तत्र साधयितुं शक्नुमः खलु. प्रतियोगिता एकः प्रतियोगिता पुस्तके अस्ति, एका प्रतियोगिता पुस्तके अस्ति, अन्या प्रतियोगिता तत्र घटे एव अस्ति. अतः तत्र घटाभावस्य प्रतियोगिता पुस्तके नास्ति, पुस्तकभावस्य प्रतियोगिता घटे नास्ति. अतः तत्र आश्रयभेदात् तत्र प्रतियोगिताभेदः ज्ञातुं शक्नुमः. इदानीं किन्तु इदानीं समस्या का इति तथापि इति ततः अग्रे पठतु.
तथापि जलं नास्ति इति सामान्याभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते, स्वातिनक्षत्रीयवृष्टिजले अपि वर्तते इति प्रतियोगितयाः आश्रयाः सर्वाणि जलानि भवन्ति. सामान्यजलाभाव जलाभावस्य प्रतियोगिता कूपजले वर्तते, इष्टजले अपि वर्तते, स्वातिनक्षत्रीयजले अपि वर्तते इति
प्रतियोगितायाः आश्रयः
नीत्वा सर्वाणि जलानि तस्य प्रतियोगिता भवन्ति इति.
हा समीचीनं भगिनि. अतः तत्र सामान्यजलस्य सामान्यजलाभावस्य प्रतियोगिता सर्वत्र तत्र सर्वस्मिन् जले अस्ति इति कृत्वा तत्र सर्वाणि जलानि तस्य तस्याः प्रतियोगितायाः आश्रयाः भवन्ति. इदानीं तत्र समस्या उदेति नाम तत्र स्वातिनक्षत्रीयवृष्टिजलं स्वीकुर्मः, तस्मिन् तत्र किं किम् अस्ति? स्वातिनक्षत्रीयजले सामान्यजलाभावस्य अपि प्रतियोगिता अस्ति खलु तत्र?
सामान्यजलाभावस्य प्रतियोगिता वृष्टिजलाभावस्य प्रतियोगिता
अस्ति अपि
क्षत्रीयजलाभावस्य प्रतियोगिता अपि अस्ति
इदानीं तत्र किन्तु सर्वं तत्र स्वातिनक्षत्रीयवृष्टिजले एव अस्ति, अतः आश्रय एकः एव खलु इदानीम्?
अस्तु
इदानीम् एकः एव आश्रयः, सर्वम् एकस्मिन् स्थले एव अस्ति, अतः आश्रयः भिन्नः इति कृत्वा तत्र भेदः न वक्तुं साधितुं शक्नुमः. न साधितुं शक्नुमः इति समस्या अस्ति अत्र. अतः तत्र समस्याः तत्र समस्या इदानीं सर्वे अवगत समस्या का इति सर्वे अवगतवन्तः इति मन्ये. इदानीं तत्र अग्रे पश्यामः तत्र किमस्ति इति तत्र इदानीं तत्र अवच्छेदकधर्मः इति तत्र विषयः आसीत् तत्र तस्य उदाहरणं किञ्चित् चिन्तयामः. तत्र यथा वयं पूर्वं दृष्टवन्तः तत्र आदेयता अधिकरणता यज्ञदत्तः अस्ति आसनम् अस्ति वयं किम् उक्तवन्तः तत्र यज्ञदत्ते आदेयता अस्ति आसने अधिकरणता अस्ति अपि तत्र वर्णनमपि कृतवन्तः कीदृशी आधिकरणता एतत् सर्वं तादृशमेव तत्र घटः घटे प्रतियोगिता अस्ति घटाभावे अनियोगिता अस्ति इति तत्रापि वयं तत्र निरूप्यभावः अस्ति इति अपि उक्तवन्तः तथैव इदानीं तत्र अन्य उदाहरणं स्वीकुर्मः तत्र वयं पूर्वं दृष्टवन्तः तत्र घटः घटनिर्माणे तत्र कपालद्वयम् अपेक्षितम् अस्ति इति पूर्वम् उक्तं तत्र कपालद्वयम् इति तस्य संयोगेन घटस्य निर्माणं भवति किन्तु तत्र कुलालः नाम पाटर् अस्ति चेत् तत्र केवलं कपालद्वयम् इति पर्याप्तं नास्ति तत्र कारणसामग्री अस्ति अनेकानि कारणानि सन्ति नाम तत्र कपालद्वयम् अपेक्षितम् अस्ति दण्डः अपेक्षितम् अस्ति अपि चक्रम् अपेक्षितम् अस्ति जलम् अपेक्षितम् अस्ति तत्र कारणसामग्री अनेकानि कारणानि सन्ति तत्र दण्डः अपि कारणं भवति दण्डेन विना तत्र घटस्य निर्माणं न भवति कुलालः अपि कारणं भवति कुलालेन विना दण्डस्य निर्माणं न भवति अतः तत्र दण्डः कारणमिति कृत्वा तत्र कारणं नाम कास् एफेक्ट् इति तत्र कार्यम् इति वदामः तत्र घटः कार्यं दण्डः कारणं तत्र दण्डे कारणता अस्ति घटे कार्यता अस्ति इदानीं तत्र कीदृशी कारणता दण्डे अस्ति इति प्रश्ने सति वयं वदामः तत्र निरूप्यनिरूपकभावः अस्ति तत्र इदानीं पश्यामः तत्र अन्य कोऽपि वदति वा तत्र दण्डे कारणता अस्ति घटे कार्यता अस्ति सर्वे तत्र किञ्चित् चित्ररूपेण लिखन्तु तत्र अधोभागे दण्डः अन्यस्मिन् तत्र भामभागे दण्डः दक्षिणभागे घटः घटस्य उपरि कार्यता दण्डस्य उपरि कारणता इति लिखन्तु तदनन्तरं तत्र पश्यामः तत्र अग्रे तत्र अस्तु तत्र अशोक् महोदय उक्तवान् अस्तु तत्र हा सुबोध् महोदय वक्तुम् इच्छति वा
महोदय
तत्र दण्डः अस्ति घटः अस्ति दण्डः कारणं भवति घटः कार्यं नाम एफेक्ट् दण्डे कारणता अस्ति घटे कार्यता अस्ति इदानीं तत्र घटः कार्यता कीदृशी इति विवृणोति वा यथा वयम् उक्तवन्तः तत्र अनियोगिता अथवा अधिकरणता इति वर्णनं कृतवन्तः तादृशवर्णनं कर्तुं प्रयत्नं करोति वा
घटः अनियोगिता
अनियोगिता न इदानीं घटे कार्यता अस्ति घटे कार्यता अस्ति
दण्डे अनियोगिता अस्ति
न दण्डे कारणता अस्ति कारणता कारणस्य भावः कारणता दण्डे कारणता अस्ति घटे कार्यता अस्ति कार्यता अस्ति तत्र एकवारं लिखतु नो चेत् मनसि क्लेशः भवति तत्र दण्डः घटः दण्डस्य उपरि कारणता घटस्य उपरि घटस्य उपरि कार्यता हा इदानीं तत्र कीदृशी कार्यता इति वर्णयतु तत्र
कीदृशी
नाम दण्डनिष्ठ न तत्र दण्डनिष्ठ
दण्डनिष्ठ
कारणता कारणता
कारणता
निरूपित घटनिष्ठ
घटनिष्ठ
कार्यता
कार्यता
कार्यता समीचीनम् इदानीं कारणतायाः विवरणं करोतु इदानीं तत्र घटः इति आरभ्य घटनिष्ठ
घटनिष्ठ घटनिष्ठकार्यता निरूपित
दण्डनिष्ठ
कारणता
तावदेव अस्ति इति समीचीनं हा तावत् अस्ति. इदानीं तत्र कारणता यः कारणता या दण्डे अस्ति तत्र कीदृशी कारणता इति विवरणं कृतवन्तः, किन्तु तत्र सा कारणता कुत्र वर्तते, तस्य आश्रयः तत्र घटं प्रति कारणता अस्ति दण्डे, सा कारणता तस्य आश्रयः तत्र कुत्र कुत्र वर्तते इति तत्र प्रश्नः भवति. अत्र उत्तरम् अस्ति तत्र अवच्छेदकः धर्मः भवति, नाम तत्र कारणता कुत्र वर्तते, दण्डे एव वर्तते इति कृत्वा तत्र वदामः तत्र तस्य अवच्छेदकः धर्मः, नाम तत्र अवच्छेदकधर्मः इत्युक्ते नियामकः धर्मः. नियामकधर्मः नाम नियमयति, सीमां स्थापयति, अत्र एव भवितव्यम् अन्यत्र न भवितव्यम् इति यः धर्मः करोति तस्य नाम अस्ति नियामकधर्मः, अत्र अवच्छेदकः धर्मः. तत्र अस्मिन् तत्र कारणतायाः अवच्छेदकः धर्मः अस्ति तत्र दण्डत्वम्, यतोहि यत्र दण्डत्वम् अस्ति तत्र एव एषा कारणता वर्तते, यत्र दण्डत्वं नास्ति तत्र एषा कारणता न वर्तते, अतः एषः धर्मः नियामयति, नियामकः धर्मः सीमां स्थापयति, अत्र भवितव्यम् अन्यत्र न भवितव्यम् इति करोति. तेन वयम् अग्रे तत्र भेदं प्रदर्शितुं शक्नुमः, तत्र अवच्छेदकः धर्मः, तत्र दण्डत्वम् अवच्छेदकः धर्मः भवति. कस्य अवच्छेदकः धर्मः? कारणतायाः अवच्छेदकः धर्मः. तत्र कारणता भवति अवच्छेद्यं, दण्डत्वं भवति अवच्छेदकम् अथवा अवच्छेदकः धर्मः, तत्र दण्डत्वम् इति अवच्छेदकः धर्मः. तत्र कारणतायाः अवच्छेदकः धर्मः अस्ति तत्र दण्डत्वम्, यत्र दण्डत्वम् अस्ति तत्र एव एषा कारणता वर्तते अन्यत्र नास्ति इति अवच्छेदकः धर्मः. अन्यत् उदाहरणम् इदानीं तस्य उपयोगः अग्रे भवति. अस्तु तर्हि अग्रे पश्यामः तत्र अग्रे
अत्र घटे कार्यता इति वक्तुं शक्नुमः महोदय.
किं भगिनि?
घटे कार्यता इति वा?
हा घटे कार्यता, कार्यता अपि घटे कारणता, सत्यं भगिनि.
तर्हि तर्हि घटे अवच्छेदकत्वम् अस्ति, अवच्छेद्यमस्ति इति वा?
न न न न न न कारणतायाः अवच्छेदकं, नत्र कारणता कुत्र कुत्र वर्तते इति प्रश्नः. कारणता दण्डे एव वर्तते, तत्र अन्यस्मिन् स्थले न वर्तते इति कृत्वा तत् वयं कथं वदामः इत्युक्ते अवच्छेदकः धर्मः स्वीकृत्य वदामः तत्र दण्डत्वम् इति अवच्छेदकः धर्मः, यत्र दण्डत्वम् अस्ति तत्र एव एषा कारणता वर्तते, अतः वयं किं वदामः दण्डत्वम् इति अवच्छेदकः धर्मः, यदि यतोहि एषः धर्मः नियामकः धर्मः, नियमः धर्मः नाम रूल् इति खलु, नियामयति वदामः, नियामयति नाम अत्र भवितुमर्हति अन्यत्र न भवितुमर्हति इति सीमा, सीमां रचयति. अतः तत्र घटत्वं तत्र दण्डत्वम् इति धर्मः नियामकः धर्मः, यत्र घटत्वं वर्तते तत्र एव एषा कारणता वर्तते. इदानीं तत्र प्रश्नः उदेति तत्र किं कुलालस्य पार्श्वे तत्र दण्डः अस्ति, तस्मिन् तु कारणता वर्तते, यतोहि तेन दण्डेन अनेके घटाः निर्मिताः, किन्तु तत्र किम् अरण्ये दण्डः तत्र अस्ति तस्मिन्नपि तत्र कारणता वर्तते वा? किं चिन्तनं, किं चिन्तयन्ति सर्वे तत्र? अरण्ये अपि दण्डः अस्ति, तस्मिन् दण्डे अपि तत्र कारणं वर्तते वा? तत्र तेन
घटं कार्यं न भवति इति
एतावत् कार्यं न कृतं किन्तु अग्रे कर्तुं शक्नुमः खलु अतः तत्र अत्र तत्र अस्मिन् विषये तत्र घटत् तत्र दण्डत्वम् इति स्वीकृतं धर्मः नाम यद्यपि अरण्ये दण्डः वर्तते एतावत् तस्य प्रयोगः नास्ति अथवा सः दण्डः लघु अस्ति अथवा तस्य उपयोगः न कर्तुं शक्नुमः इति प्रश्नः नास्ति तस्य प्रायशः कर्तुं शक्यते इति एव चिन्तनम् अतः तत्र वदामः तत्र यत्र यत्र दण्डत्वम् एषा कारणता वर्तते घटं प्रति अस्मिन् दण्डे तत्र कारणा भवितुं तत्र तस्य प्रतिभा वर्तते तत्र शक्तिः अस्ति तत्र दण्ड तत्र घटस्य निर्माणे इति शक्तिः तस्मिन् दण्डे वर्तते इति चिन्तनम् अतः तत्र दण्डत्वम् इति वयं वदामः अवच्छेदकधर्मः दण्डत्वं तद् दण्डे एव वर्तते सर्वेषु दण्डेषु वर्तते किन्तु अन्यस्मिन् पदार्थेषु न वर्तते इति तत्र अवच्छेदकधर्मः समीचीनं तर्हि तत्र सावित्री भगिनी भवती एव तत्र इदानीं तत्र अग्रे तत्र हा तत्र चित्रे किं किम् अस्ति इति किञ्चित् वदति वा मध्ये एव तत्र अधोभागे
स्वातिनक्षत्रीय एव अस्ति खलु चित्रे
स्वातिनक्षत्रीय जलवृष्टि केवलं तत्र एव आश्रयः पूर्वम् उक्तम् अस्तु तर्हि अग्रे सरामः तर्हि
जलत्वादिधर्मान्नादाय प्रतियोगिता भवति साधनं तदपि दृष्टम् यदा कूपजले अतः प्रतियोगितायाः आश्रयः भिद्यते इति प्रतियोगिता अपि तत्र तत्र विलक्षणा इति ज्ञायते एवं वयम् एतावता आश्रयानुगुणम् आश्रयम् आश्रित्य आश्रयम् आधारीकृत्य तत्र वयं प्रतियोगितायाः निश्चयं कर्तुं शक्नुमः इति चिन्तितवन्तः किन्तु प्रतियोगितायाः
सत्यमेव नाम तत्तु जानीमः किन्तु तादृशी परिस्थितिः अत्र नास्ति इदानीं तत्र चित्रे चित्रम् अस्ति यदस्ति तत्र किञ्चित् वदतु जलं नास्ति इति
जलं नास्ति इति सामान्य अभावः यः अस्ति तत्
निरूपित
तस्य अनियोजिता निरूपित प्रतियोगिता यथा कूपजले तथा वृष्टिजले स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति भवति
अस्ति अतः एतत् वयं पठितवन्तः तावदेव
इह अस्याः प्रतियोगितायाः आश्रयः न भिद्यते किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं प्रतियोगिता अन्ययोः प्रतियोगितयोः भिन्ना अन्या इति न ज्ञायते अतः तासां भेदसाधनाय अवच्छेदकस्य अपेक्षा वर्तते ओके तत् तर्हि अत्र एवमेव यदि जलस्य अभावः तत् प्रतियोगिता अस्माकं तत्र वृष्टिजले अपि च स्वातिनक्षत्रीययुक्त वृष्टिजले अपि दृश्यते अतः अस्याः प्रतियोगितायाः आश्रयभेदः नास्ति इति तत् नास्ति किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं प्रतियोगिता भवति इति अन्ययोः प्रतियोगितयोः भिन्ना अन्या इति न ज्ञायते. इत्युक्ते तत् अन्यद्वयस्य सामान्य तत्र जलस्य वृष्टिजलस्य च स्वातीनक्षत्रयुक्तवृष्टिजलं भिन्ना इति न दृश्यते, न ज्ञायते.
अतः तत्र इदानीं
अतः तास्
आश्रय अत्र अस्मिन् उदाहरणे नास्ति, यतोहि सर्वप्रतियोगिताः एकस्मिन् स्थले तत्र स्वातिनक्षत्रीयवृष्टिजले
जले दृश्यते सन्ति.
अतः तत्र
अतः तासाम् अवच्छेदकस्य अपेक्षा वर्तते.
तत्र अवच्छेदकस्य उपयोगं कथं कर्तुं शक्नुमः अग्रे पश्यामः. धन्यवादः भगिनी. धन्यवादः. अस्तु अग्रे शर्वाणी भगिनी अग्रे पठति वा, अन्य कोऽपि तत्र विवृणोति?
आं महोदय.
अत्र ततः आरभ्य. सत्यम्. अत्र इदं ज्ञेयम् इति सत्यम्.
अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्. यथा जलं नास्ति इति अभावः उक्तः, जले च प्रतियोगिनी सन्ति. जलत्वद्रव्यत्वसत्तादयोः धर्माः. परन्तु अभावकथनाय जलं नास्ति इत्येव उक्तमिति जलत्वेनैव जलस्य उल्लेखः कृतः. अतः तत् प्रतियोगितावच्छेदकम्.
तावत्पर्यन्तं समीचीनं भगिनि, धन्यवादः. अस्तु तत्र शोभा भगिनी तत्र विवृणोति वा?
नमस्ते महोदय.
नमस्कारः भगिनि.
क्षम्यतां, तत्र
अत्र इदं ज्ञेयम् इति आरभ्य.
अत्र इदं ज्ञेयमिति अत्र इदं ज्ञेयं प्रतियोगिनी तत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्. तत्र अस्तु पङ्क्तिशः नयामि महोदय. प्रतियोगिनी इत्युक्ते यस्मिन् प्रतियोगिता अस्ति इति. तत्र प्रतियोगिनी इति सप्तमी विभक्त्यां दत्तं. तस्मिन् यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्.
अस्तु अस्तु भगिनि, तत्र प्रतियोगी इति वदामः, प्रतियोगी इति वदामः, किन्तु तत्र कस्य प्रतियोगी इति प्रश्नः भवति खलु?
आम्.
अतः तत्र वयं किं चिन्तयामः, तत्र प्रतियोगिनः नाम षष्ठी, प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तद् भवति तत्र प्रतियोगितायाः अवच्छेदकम्. नत्र नाम प्रतियोगितायाः सीमां तत्र यः धर्मः करोति, सीमां रचयति, तस्य धर्मस्य आधारेण तत्र कस्य प्रतियोगी इति वक्तुं शक्नुमः इति. इदानीम् अग्रे तत्र उदाहरणं अग्रिमे
यत्र यदि यत्र सामान्यजलं प्रतियोगिता इति वदामः तर्हि तदेव तस्य अवच्छेदकमपि इति अवगतम्
इति वार्ता अस्ति. सत्यं भगिनि, सत्यं. समीचीनं. अस्तु शोभ भगिनि, इदानीम् उदाहरणम् अग्रिमे वाक्ये अस्ति.
यथा यथा जलं नास्ति इति अभावः उक्तः. जले
इदानीं तत्र जलम् इति प्रतियोगी, तत्र जलं नास्ति इति अभावः, जलाभावः,
जलाभावः
अतः जले प्रतियोगिता वर्तते.
जले प्रतियोगी जलस्य अभावः अस्ति चेत् तस्य प्रतियोगी जलं भवति
जलाभावस्य प्रतियोगी
जलाभावस्य प्रतियोगी जल जलं
जलं जलमेव खलु जलमेव किन्तु
जले च
तत्र जलं जलमिति वदामः जले जलं प्रतियोगी इति वदामः प्रतियोगिता वर्तते जले इदानीं तत्र केन अवच्छेदक तत्र अवच्छेदकः धर्मः कः नाम कः धर्मः तस्य प्रतियो तस्याः प्रतियोगितायाः सीमां रचयति नियामयति कः धर्मः नियामयति
यथा दण्डस्य उदाहरणं दत्तवान् महोदय
हा इदानीं हा अतः तत्र तस्य धर्मस्य नाम सः एव अवच्छेदकः धर्मः अतः तत्र अग्रे पठतु जले
जले च प्रतियोगिनी सन्ति तत्र जले च प्रतियोगिनी सन्ति जलत्वद्रव्यत्वसत्तादयो धर्माः
हा तत्र जले च प्रतियोगिनी इति किम् अस्ति तत्र
तदेव तत्र क्लेशः अस्ति मम
प्रतियोगिनी नाम तत्र सप्तमी भगिनी तावदेव
तत्रापि सप्तमी एव प्रतियोगिनी इति
हा जलं जले इति तस्य विशेषणम् अस्ति प्रतियोगी जलं प्रतियोगी जले प्रतियोगिनी तस्मिन् सन्ति काः तत्र के सन्ति धर्माः
तत्र च इति प्रथमम् एव आगतम् अतः क्लेशः जले जले च प्रतियोगिनी सन्ति अस्तु जलत्व द्रव्यत्व सत्ता आदयोः धर्माः
आदयः धर्माः
आदयः धर्माः क्षम्यतां तर्हि तत्र जले
जलत्वमस्ति
जलत्वमस्ति द्रव्यत्वमस्ति अपि सत्ता इति तु सर्वत्र अस्ति
इदानीं तत्र इदानीं तत्र अतः तत्र प्रतियोगी इति वदामः चेत् कः धर्मः नियामयति सीमां रचयति तत्र जलत्वमिति नियामयति वा द्रव्यत्वमिति नियामयति वा अथवा सत्ता इति धर्मः नियामयति वा
अस्तु तत्र नियामयति इति किं
नियामयति नाम सीमां रचयति लिमिट् लिमिट् करोति नियामयति
वक्तुं शक्नुमः वा तत्र जले च प्रतियोगिनी सन्ति धर्माः
तत्र धर्मस्य क्षेत्रं यत् लघु अस्ति तदेव सः धर्मः एव नियामयति खलु
हा तत्र किं तर्हि तत्र जलत्वं नास्ति द्रव्यं
जलत्वं जलत्वम् इति धर्मस्य क्षेत्रं लघु अस्ति खलु द्रव्यत्वं द्रव्यत्वम् इति तस्य क्षेत्रम्
अपि च सत्ता इति तयोः द्वयोः अधिकम् अस्ति
अतः तत्र नियामं नियमय
तत्र जलत्वमेव भवति तर्हि
इति अतः अग्रे वाक्यं परन्तु
अग्रे परन्तु अभावकथनाय जलं नास्ति इत्येव उक्तम् इति जलत्वं जलत्वेन एव जलस्य उल्लेखः कृतः अस्तु तत्र अभावकथनाय इत्युक्ते तत्र अभावस्य किं
अभावेन एव तत्र प्रतियोगी इति तत्र नामकरणं कृतं खलु जलस्य नामकरणं प्रतियोगी इति कृतम् अतः तत्र केन धर्मेण तत्र प्रतियोगी इति नामकरणं कृतं तत्र केन तत्र नियामकेन धर्मेण एतद् नामकरणं कृतम् इति प्रश्ने सति तत्र उत्तरं किं तत्र यस्य धर्मस्य तत्र क्षेत्रं लघु अस्ति नियामन् तत्र नियमनं भवति इति कृत्वा अतः तत्र जलत्वम् इति एव तत्र सम्यक् भवति खलु तस्य क्षेत्रमेव लघु अस्ति अतः तत्र जलत्वम् इति अवच्छेदकः धर्मः भवति प्रतियोगितायाः
तत्र महोदय यथा तत्र क्षीरम् अपि पात्रम् इति दृष्टवन्तः तत्र पात्रमेव अवच्छेदकम् अभवत् तथा तत्र किं भवति अवच्छेदकं कथं भवति इत्युक्ते तत्र तत्र किमर्थं पात्रम् अभवत् पात्रमेव अवच्छेदकम् अभवत्
तत्र आश्रयभेदमेव तत्र आसीत् आशयभेदः तत्र पृथक् इति प्रदर्शयति भिन्नः इति प्रदर्शयति अत्र वयं धर्मः एतत् नियामकधर्मं स्वीकृत्य भेदं प्रदर्शयामः अग्रे.
तत्र तु एकमेव आसीत्,
एकं तस्य इदानीं तत्र जलत्वं, जलत्वं नाम यत्र यत्र जलत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति इति नियामयति खलु.
आम् आम्.
हा, तत्र जलत्वं यत्र यत्र वर्तते तत्र एव तत्र जलाभावस्य प्रतियोगिता वर्तते. अतः तत्र जलत्वम् इति धर्मः यः अस्ति सः नियामकः धर्मः अस्ति, यतोहि सः धर्मः नियामयति. प्रतियोगिता अत्र एव भवितव्यम्, अन्यत्र न भवितव्यम्.
यथा तत्र जलत्वम् इति निरूपयति, अपि तत्र वृष्टिजलं वृष्टिजलं भवितुम् अर्हति अथवा
अग्रे पश्यामः. किन्तु जलत्वम् इति तत्र निरूपयति इति अपि समीचीनं, किन्तु नियामयति इति नियामयति तत्र अत्र एव भवितव्यम् इति वदति. अतः तत्र जलत्वम् अपि प्रतियोगिता द्वयमपि जले वर्तते खलु. तत्र एक समान आश्रयः अत्र, तत्र जलत्वं जले अस्ति, प्रतियोगिता अपि जले अस्ति. प्रतियोगितायाः अवच्छेदकः अस्ति जलत्वम्. अपि तत्र जलत्वे किमस्ति, अवच्छेदकता अस्ति अस्मिन् उदाहरणे. तत्र जलत्वम् अवच्छेदकम् इति उक्तवन्तः, जलत्वम् अवच्छेदकं, प्रतियोगिता अवच्छेद्यम्. अतः तत्र प्रतियोगितायां किमस्ति, अवच्छेद्य अवच्छेद्यता अस्ति खलु.
प्रतियोगितायाः अवच्छेद्यता
न प्रतियोगिता अवच्छेद्यम्
अवच्छेद्यं
जलत्वम् अवच्छेदकम्. इदानीं जलत्वे तर्हि तत्र यथा पूर्वं वयं दृष्टवन्तः पूर्वस्मिन् पुटे, तत्र पश्यतु, तत्र 21 मध्ये किम् आसीत्, पात्रे अवच्छेदकता आसीत्, क्षीरे अवच्छेद्यता अस्ति खलु.
आम् आम्.
हा, तथैव अत्र किमस्ति, जलत्वे
अवच्छेदकता अस्ति,
प्रतियोगितायां
प्रतियोगितायाम् अवच्छेद्यता अस्ति,
अवच्छेद्यता अस्ति इति. अतः अस्तु, अतः तत्र इदानीं तत्र जलत्वम् इति अवच्छेदकः धर्मः. अस्तु, समीचीनं भगिनि. अस्तु, धन्यवादः.
धन्यवादः महोदय.
अस्तु, अग्रे
अधुना
चिन्ता मास्तु भगिनि. अस्तु, अग्रे तत्र अन्य कोऽपि महोदय पठितवान्, सूर्यकुमारी भगिनी अस्ति वा? अस्ति. अस्तु अस्तु, तत्र धनश्री भगिनी पठितुम् इच्छति वा?
आं महोदय. तत्र चित्रमस्ति परन्तु अभावकथनाय
तत्र नाम तत्र केवलं तत्र इदानीं निदर् प्रदर्शनं प्रदर्शितमस्ति तत्र जल
प्रतियोगिता अस्ति, जले जलत्वमपि अस्ति.
अपि तत्र जलत्वे अवच्छेदकता अस्ति, प्रतियोगितायाम् अवच्छेद्यता अस्ति. इदानीम् अग्रे
तथा च यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितम् तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति.
तावत्पर्यन्तं.
तावदेव. यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं नाम जले अनेकाः प्रतियोगिता भवितुं शक्नुवन्ति इति सम्यक् अस्ति वा?
सत्यं सत्यं. यथा वयं दृष्टवन्तः तत्र स्वातिनक्षत्रीयवृष्टिजले
हा यथा स्वातिनक्षत्रियवृष्टिजले वृष्टि जलम् इति प्रतियोगिता अस्ति जलम् इति प्रतियोगिता अस्ति स्वातिनक्षत्रीयवृष्टिजलम् इति अपि प्रतियोगिता अस्ति तेषां मध्ये भेदज्ञानं कथं वयं ज्ञातुं शक्नुमः तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इति प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति नाम तत्र कश्चित् अवच्छेदकता अपेक्षिता येन जलत्वं वृष्टिजलत्वं स्वातिनक्षत्रियवृष्टिजलत्वम् अनयोर्मध्ये वयं भेद ज्ञातुं शक्नुमः
अतः तत्र यथा चित्रम् उपरि अस्ति तथैव अग्रिमे पुटे अपि चित्रद्वयम् अस्ति
एवं वृष्टिजलं नास्ति इति अभावस्य अपि वृष्टिजले प्रतियोगिता अस्ति वृष्टिजले वृष्टिजलत्वम् अस्ति
वृष्टिजले वृष्टिजलत्वम् इति किं भवति अवच्छेदकधर्मः अस्ति अवच्छेदकधर्मः अस्ति प्रतियोगितायाः
अवच्छेदकधर्मः वृष्टिजलमस्ति वृष्टिजलत्वम्
वृष्टिजलत्वम् अस्ति हा इदानीं तत्र तृतीयचित्रे स्वातिनक्षत्रीयचित्रे
स्वातिनक्षत्रीयवृष्टिजलमस्ति तत्र अवच्छेदकधर्मः स्वातिनक्षत्रीयवृष्टिजलत्वमस्ति
हा इदानीम् अतः तत्र इदानीम् एतत् चिन्तयामः तत्र स्वातिनक्षत्रीयवृष्टिजलम् अस्ति तस्मिन् जले तिस्रः प्रतियोगिताः सन्ति तत्र आश्रयभेदम् इति न वक्तुं शक्नुमः यतोहि सर्वाः प्रतियोगिताः एकस्मिन् स्थले एव सन्ति इदानीं अतः तत्र तेषां भेदः कथं स्थापयामः इत्युक्ते वयं प्रतियोगितायाः अवच्छेदकः धर्मः कः इति पश्यामः यदि अवच्छेदकधर्मः भिन्नाः सन्ति चेत् तत्र प्रतियोगिताः अपि भिन्नाः यथा वयं पूर्वम् आश्रयं भिन्नम् इति दृष्ट्वा पदार्थः भिन्नः इति साधितवन्तः तथैव इदानीम् अवच्छेदकः धर्मः कः इति दृष्ट्वा भेदं तत्र साधितुं शक्नुमः अतः तत्र किं भवति प्रतियोगिताः तिस्रः प्रतियोगिताः सन्ति स्वातिनक्षत्रीयवृष्टिजले किन्तु एका ये तत्र प्रथमा प्रतियोगिता या अस्ति सामान्य तस्याः अवच्छेदकः धर्मः अस्ति जलत्वम् अन्यस्य तत्र प्रतियोगितायाः अवच्छेदकधर्मः अस्ति वृष्टिजलत्वं तृतीयाः तस्य अस्ति स्वातिनक्षत्रीय
वृष्टिजलत्वम्
अतः तत्र धर्मः भिन्नः खलु अतः प्रतियोगिताः अपि भिन्नाः इति भवति अस्तु इदानीं तत्र अग्रे अपि किञ्चित् पठति वा भगिनि
आमाम् अत्र यद्यपि जलसामान्याभावस्य प्रतियोगिता कूपजले इव स्वातिनक्षत्रीयवृष्टिजले अपि वर्तते अतः आश्रयाः ते एव तथापि सामान्य अभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वम् वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयवृष्टिजलत्वम् इति अवच्छेदकभेदात् सिद्धः प्रतियोगिताभेदः अत्रैवम् अवच्छेद्या अवच्छेदकभावः
तत्र वदतु भगिनि
अत्र यद्यपि जलसामान्य अभावस्य प्रतियोगिता कूपजले अस्ति स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति अतः आश्रया ते एव तथापि सामान्य अभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धजलत्वं अत्र आश्रयाः भिन्नाः जलसामान्यस्य जलसामान्य अभावस्य यः प्रतियोगिता अस्ति सा प्रतियोगिता कूपजले अपि अस्ति स्वातिनक्षत्रियवृष्टिजले अपि अस्ति
किन्तु तथा स्वातिनक्षत्रियवृष्टिजले अस्ति इति कृत्वा आश्रयः भिन्नाः इति आश्रयः भिन्नः इति न वक्तुं शक्नुमः यतोहि एकस्मिन् स्थले तत्र वर्तते तत्र सर्वाः प्रतियोगिताः वर्तन्ते यथा तत्र पूर्वं वयं दृष्टवन्तः तत्र पुस्तकाभावः अपि तत्र घटाभावः तत्र आश्रयः भिन्नः हा तत्र यद् तत्र किमपि वस्तु तत्र किमपि कोऽपि पदार्थः नास्ति यस्मिन् तत्र प्रतियोगिताद्वयं वर्तते खलु पुस्तकभावस्य प्रतियोगिता अपि तत्र
परिस्थितिः अस्ति एकस्मिन् परिस्थित्यां सामान्यजलत्वं यः अस्ति तत्र भिन्न अनेकाः आश्रयाः सन्ति यत्र स्वातिनक्षत्रियवृष्टिजलमस्ति तत्र वृष्टिजलम् अस्ति तत्र एक एव आश्रये अनेकाः प्रतियोगिताः सन्ति
हा इति सत्यम् अतः तत्र वयम् अवच्छेदकधर्मं दृष्ट्वा भेदं स्थापितुं शक्नुमः हा सामान्य अभावस्य प्रतियोगितायाः
अवच्छेदकं शुद्धं जलत्वमेव यत्र यत्र शुद्धं जलत्वम् अस्ति तत्र तत्र सामान्यजलाभावस्य प्रतियोगिता अस्ति
सत्यं हा अग्रे
वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं तथैव स्वातिनक्षत्रियवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रियवृष्टिजलत्वम् इति अवच्छेदकभेदात् सिद्धः प्रतियोगिता भेदः नाम अत्र आश्रयभेदात् वयं साधितुं न शक्नुमः अवच्छेदकभेदात् एव प्रतियोगिताभेदः साधितुं शक्नुमः
इति अस्ति सत्यं हा समीचीनं भगिनि हा तत्र इदानीं तत्र अवच्छेद्य अवच्छेदकभावः तयोः मध्ये तत्र निरूप्यनिरूपकभावः अस्ति यथा वयं पूर्वं तत्र प्रतियोगिता नियोगिता अधिकरणता अधेयता इति तस्मिन् सन्दर्भे उक्तवन्तः तादृशम् अत्रापि भवति इदानीं तत्र दीर्घवाक्यस्य निरूपणम् अस्माभिः भवति इदानीं तत्र धन्यवादः भगिनि धनस्य भगिनि धन्यवादः अस्तु अग्रे तत्र अन्य कोऽपि कः अथवा का पठितुम् इच्छति तत्र सुधा भगिनी पठितुम् इच्छति वा अग्रे
अस्तु महोदय
हा तत्र चित्रे यदस्ति तत्र किञ्चित्
जले जलत्वम् अपि च प्रतियोगिता अस्ति जलत्वम् इति जलत्वे अवच्छेदकता अस्ति जलनिष्ठ
अस्तु तत्र एकं भागं स्वीकुर्मः भगिनि तत्र जलत्व इति आरभ्य तत्र प्रतियोगिता कीदृशी इति वदतु तत्र जलत्वनिष्ठ
अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेदकता निरूपित अवच्छेद्यता आश्रय प्रतियोगिता
इति समीचीनं हा तादृशम् अस्ति अपि पूर्वं तत्र प्रतियोगिता नियोगिता तयोः मध्ये सम्बन्धः वयं पूर्वमेव दृष्टवन्तः सम्बन्धः कः इति अस्तु इदानीम् अग्रे सर्वत्र
चित्रेषु ऊर्ध्वगमनानि शरे
ऊर्ध्वगामिनी
शरे निष्ठ इति अधोगामिनी शरे आश्रय इति
तिरश्चीनो
चिने निरूपित इति न्यायभाषया व्यवहर्तव्यम्
हा नाम ऊर्ध्वगामिनी उपरि गमने निष्ठ इति वदामः शरे नाम शरः
अधोगमनशर अस्ति चेत् तत् आश्रयः अस्ति
इति वयं पूर्वमपि एतादृशीं प्रयोगं कृतवन्तः खलु तावदेव अस्ति तत्र न्यायभाषया एतादृशव्यवहारः भवति. अस्तु, अग्रे इदानीं तस्य प्रयोगम् एवम्.
एवं च जलत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रय जलनिष्ठ प्रतियोगितानिरूपित अनियोगिता आश्रय अभावः इति विवरणं भवति.
हा, इदानीं तत्र भवती एकं भागं स्वीकृत्य उक्तवती खलु, तत्र जलत्वनिष्ठ
अवच्छेदकतानिरूपित अवच्छेद्यता आश्रय प्रतियोगिता.
हा, इदानीं सा प्रतियोगिता कुत्र अस्ति?
प्रतियोगिता निरूपित
प्रतियोगिता कुत्र अस्ति? जले अस्ति खलु. अतः एव तत्र जलत्वनिष्ठ
प्रतियोगिता.
तत्र यत् वाक्यं भवती पठितवती तद् एकम् पश्यतु, अपि कुत्र कुत्र वयं गच्छामः इति चित्रे पश्यतु. जलत्वनिष्ठ इति आरभ्य
जलत्वनिष्ठ अवच्छेदकता निरूपित.
इदानीं तत्र जलत्वनिष्ठ इति तत्र एतादृशं वर्णनं करोतु. जलत्वम् इति अस्ति, उपरि गच्छामः, निष्ठ इति अस्ति, उपरि गच्छामः,
उपरि गच्छामः, अतः जलत्वनिष्ठ अस्ति. अवच्छेदकता निरूपित अवच्छेदता अधोगमने शरे अस्ति, अतः आश्रयः प्रतियोगिता.
आश्रयः प्रतियोगिता अस्ति सत्यं, किन्तु सा प्रतियोगिता कुत्र अस्ति? जले अस्ति खलु.
जले अस्ति,
अतः तत्र जलनिष्ठप्रतियोगिता अस्ति खलु.
जलनिष्ठप्रतियोगिता.
हा, इदानीं तत्र वयं पूर्वं कृतवन्तः, तत्र जलं प्रतियोगिता अनियोगिता अभावः, तस्य वर्णनं अभावस्य वर्णनं कथं कृतवन्तः वयं?
जलनिष्ठ प्रतियोगिता निरूपित अनियोगिता आश्रय अभावः
इति कृतवन्तः पूर्वं खलु. इदानीं वयं किं कर्तुम् इच्छामः चेत्, तत्र प्रतियोगिता इदानीं तत्र जलनिष्ठा इति अस्ति तत्तु सत्यं, किन्तु सा प्रतियोगिता जलत्वेन तस्य तस्याः प्रतियोगितायाः अवच्छेदकः धर्मः जलत्वम् इति अपि वक्तुम् इच्छामः. यतोहि अनेकाः प्रतियोगिताः तत्र जले भवेयुः, अतः तत्र एषा प्रतियोगिता कीदृशी इति वर्णितुम् इच्छामः. अतः वयं किं कुर्मः, प्रतियोगितायाः पूर्वं तत्र यद्यत् किमपि अस्ति, तत्र जलत्वम् एतत् सर्वं तदपि स्थापयामः. अतः तत्र पश्यतु, तत्र भागद्वयमस्ति. एकं भागं किमस्ति? जलत्वम् अवच्छेदकता अवच्छेदता प्रतियोगिता इति एकं भागम्. अन्यद् भागम् अस्ति जलं प्रतियोगिता अनियोगिता अभावः. द्वयोः अपि तत्र वयं विवरणं पूर्वं कृतवन्तः, किन्तु इदानीं मिलित्वा विवरणं कुर्मः. हा, अस्तु. अतः तत्र इदानीं पुनः एकवारं पठतु वाक्यम्. एवं च
जलत्वनिष्ठ अवच्छेद्यकतानिरूपित अवच्छेद्यकता आश्रय जलनिष्ठ प्रतियोगितानिरूपित अनियोगिता आश्रयः अभावः इति विवरणं भवति.
हा, नाम अभावः कीदृशी? अनियोगिता अस्ति, प्रतियोगिता अस्ति, जलम् अस्ति, प्रतियोगिता कीदृशी? तत्र अवच्छेद्यता अस्ति, अवच्छेदकता अस्ति, जलत्वम् अस्ति, एतत् सर्वम् अत्र अन्तर्भूतः भवति. अस्तु, इदानीं तत्र अग्रिमवाक्यं तत्र अन्य कोऽपि करोतु. हा, धन्यवादः भगिनि.
हा,
अस्तु, अग्रे तत्र हा नरसिंह महोदय तत्र अग्रिमवाक्यं करोति वा? तत्र अग्रे अस्तु अस्तु, चिन्ता मास्तु. तर्हि अस्तु, तत्र अन्य कोऽपि तत्र चन्द्रमती भगिनी. अस्तु,
नमस्ते महोदय.
हा, नमस्ते भगिनि. हा,
इदम् अभावात् तत्र
सत्यं. हा,
इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः.
हा, नाम भगिनि, एतावत् पूर्वं वयं किं कृतवन्तः, तत्र जलत्व इति आरभ्य अन्ते अभावः कीदृशः इति वर्णनं कृतवन्तः. अतः तत्र अभावः अन्ते आसीत्, जलत्वम् इति आरम्भे आसीत्. इदानीं तत्र विपरीततया अपि वयं कर्तुं शक्नुमः, नाम अभावः अन्ते, तत्र अभावः आरभ्य अन्ते तत्र जलत्वम् इति. अतः तत्र वर्णनं किम् अस्ति इति एकवारं वदतु.
वृष्टिजलनिष्ठ
तत्र वाक्यं दत्तमस्ति, तदेव
अभावनिष्ठा अनियोगिता निरूपिता जलनिष्ठ प्रतियोगिता निष्ठ अवच्छेदनिष्ठ अवच्छेद निरूपिता अवच्छेद अवच्छेद आश्रय
अवच्छेदकथा आश्रय
अवच्छेदकथा आश्रयक जलत्व.
हा, इदानीं तत्र किं कृतवन्तः, अभावः इति अस्ति, उपरि गतवन्तः अभावनिष्ठा, तत्र किम् अस्ति अनियोगिता खलु. अभावः
निष्ठा अनियोगिता निरूपिता जलनिष्ठ प्रतियोगिता निष्ठ अवच्छेद अवच्छेदकता अवच्छेद्यता निरूपिता अवच्छेदकता आश्रयः जलत्वम्
इति. अतः तत्र अभावः इति अस्ति, तत्र उपरि गतवन्तः, तदनन्तरं निरूपिता इति, तत्र प्रतियोगिता तावत्पर्यन्तं गतवन्तः. किन्तु प्रतियोगिता कुत्र अस्ति, प्रतियोगिता जले अस्ति इति कृत्वा, जले अस्ति इति कृत्वा जलनिष्ठ इति अपि स्थापितवन्तः. इदानीं तस्य पुनः उपरि गतवन्तः, प्रतियोगिता
अभावः.
हा, तत्र प्रतियोगिता अवच्छेद्यता इति गतवन्तः, तत्र निरूपिता अवच्छेदकता तत्र अभावः पर्यन्तं गन्तुं शक्नुमः अथवा जलत्वं पर्यन्तं गन्तुं शक्नुमः. इदानीं तत्र एतादृशी तत्र अस्तु, समीचीनं भगिनी, धन्यवादः. इदानीं तत्र जयलक्ष्मी भगिनी तत्र किञ्चित् विवृणोति वा, तत्र
आं महोदय. नमस्ते महोदय.
नमस्कार भगिनि.
एतदेव चित्रं विवरणं
अग्रिमम् अपि स्वीकर्तुं शक्नोति, तत्र वृष्टिजलम् इति अस्ति.
अत्र चित्रे वृष्टिजलम् अस्ति, वृष्टिजलनिष्ठ वृष्टिजलत्वम् अस्ति, तत्र वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित प्रतियोगिता
अधोभागे तत्र वाक्यमस्ति, तत् पठित्वा विवृणोतु.
अस्तु महोदय. द्वितीये वृष्टिजलनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनियोगिताश्रय अभावः इति दत्तमस्ति. अत्र वृष्टिजले वृष्टिजलत्वं निष्ठा अस्ति, अतः वृष्टिजलनिष्ठ वृष्टिजलत्वं, पुनः वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यत आश्रय प्रतियोगिता अस्ति. तादृशप्रतियोगिता इति चेत् वृष्टिजल वृष्टिजलनिष्ठ प्रतियोगिता अस्ति.
अस्ति, समीचीनं. तादृशी प्रतियोगिता
प्रतियोगिता, पुनः तादृशवृष्टिजलप्रतियोगिता निरूपित अनियोगिताश्रयः अभावः
इति भवति, इति भवति, समीचीनं. हा, इदानीं तत्र विपरीतदिशि गन्तुं प्रयत्नं करोति वा, तत्र अभावः इति आरभ्य यतः पूर्वं
प्रयत्नं करिष्यामि.
अभावनिष्ठ इति,
अभावनिष्ठ
अनियोगिता,
अभावनिष्ठ अनियोगिता निरूपित अवच्छेद्यता
वृष्टिजलनिष्ठ
वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनिष्ट अवच्छेद्यता निरूपित वृष्टिजलत्वनिष्ठ
अवच्छेदकता अन्ते तत्र वृष्टिजलत्वम् इति भवेत्
इति भवेत्
लक्ष्यं.
पुनः एकवारं वदिष्यामि महोदय. अभावनिष्ठ अनियोगिता निष्ठ
अनियोगिता निरूपित
अनियोगिता निरूपित
वृष्टिजलनिष्ठा
वृष्टिजलनिष्ठा प्रतियोगिता
निष्ठा
निष्ठा अवच्छेद्यता निरूपित अवच्छेदकता निष्ठ वृष्टिजलता
आश्रयः इदानीम् अधोभागे
अवच्छेदकता क्षम्यता अवष्टे अवच्छेदकता आश्रयः
वृष्टि जलत्वं
जलत्व वृष्टिजलम् इति भवेत् वा
वृष्टिजलत्वं
वृष्टिजलत्वं
तावदेव तत् तावत् पर्यन्तं गन्तव्यमस्ति अस्माभिः अस्तु तत्र एतादृशी वर्णनं भवति तत्र अवच्छेक अवच्छेदकधर्मस्य अपि तत्र अतः तत्र सोपानेन वयं गन्तुं शक्नुमः तत्र एकं भागं पूर्वं तस्य विवरणं कृतवन्तः अन्यत् भागस्य विवरणमपि कृतवन्तः इदानीं तत्र केवलं मेलनं करणीयं तावदेव अस्ति प्रथमवारं कुर्मश्चेत् क्लेशः अस्ति एव किन्तु वारं वारं कुर्मश्चेत् समीचीनं भवति अतः चिन्ता
मास्तु
चिन्ता समीचीनमेव आसीत् भगिनि चिन्ता मास्तु इदानीं तत्र अग्रे तत्र पश्यामः तत्र अन्य कोऽपि तत्र अस्तु अस्तु महोदय तर्हि तत्र पुस्तकमस्ति वा तत्र अथवा चित्रमस्ति वा अस्तु तर्हि तत्र तस्मिन् तत्र अधोभागे तत्र चित्रे किमपि नास्ति स्वातिनक्षत्रीयवृष्टिजलम् इति दृष्ट्वा तत्र अभावः कीदृशः इति विवृणोति वा एतदेव दृष्ट्वा
विवृणोमि स्वातिनक्षत्रीयवृष्टिजलं न स्वातिनक्षत्रीयवृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टि स्वातिनक्षत्रीयवृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनियोगिता आश्रय अभाव
इति समीचीनं महोदय अस्तु तावदेव अस्ति तावदेव अस्ति अस्तु समीचीनम् अतः तत्र इदानीं तत्र प्रतियोगिता कीदृशी इति उक्त्वा तत्र तादृश तत्र तस्य विवरणम् अभावस्य विवरणे अपि वयं स्थापितवन्तः तत्र अतः तत्र एतत् तत्र अभावस्य विवरणे तत्र घटकाः सन्ति नाम तत्र अनेकाः भागाः सन्ति अतः तत्र तादृशवर्णनम् अपेक्षितम् इति अस्तु अतत्र अवच्छेदकधर्मस्य भेदात् वयं प्रतियोगितायाः भेदः अपि प्रतियोगितानां भेदः अपि वयं स्थापितवन्तः अस्तु तर्हि तावदेव अस्ति अद्यतनविषयः अग्रे गत्वा तत्र एतस्य विवरणं यथा वयं कृतवन्तः तादृशविवरणम् अग्रे अपि भवति तदनन्तरं तत्र अभावस्य चतुर्विधत्वम् इति अग्रिमविषयः भवति अस्तु तावदेव अस्ति धन्यवादाः नमस्कारः